चारित्रेण च को युक्तः सर्वभूतेषु कोहितः विद्वान् ककः समर्थश्च कश्चैकप्रियदर्शनः आत्मवान् को जितक्रोधो द्युतिमान् को ननसूयकः कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे तपस्वाध्याय निरतं तपस्वी वाग्विदाम्बरं नारदं परिपप्रच्छा वाल्मीकिर्मुनिपुङ्गवम् कौन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः चारित्रेण च को युक्तः सर्वभूतेषु को हितः विद्वान् ककः समर्थश्च कश्चैकप्रियदर्शनः आत्मवान् को जितक्रोधो द्युतिमान् को ननसूयकः कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे